ओम नमो भगवते वासुदेवाय। अथ दशमोऽध्यायः। राजोवाच कथ्यतां भगवन्नेतत्तयोः शापस्य कारणं यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः। श्रीशुक उवाच रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ वारुणीं मदिरां पीत्वा मदाघोर्नितलोचनौ स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने अन्तः प्रविश्य गङ्गायामम्भोजवनराजिनी चिक्रीडतुर्युवतिभिर्गजाविव करेणुभिः यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत। तम् दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शापसङ्किताः वासांसि पर्यदुः शीघ्रम् विवस्त्रौ नैव गुह्यकौ। तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ तयोरनुग्रहार्थाय शापम् दास्यन्निदम् जगौ। नारद उवाच नहि अन्यो जुषतो जोष्यान् बुद्धिभ्रंसो रजोगुणः श्रीमदादाभिजात्यादिर्यत्र स्त्रीद्यूतमासवः हन्यन्ते पशवो यत्र निर्दयैरजितात्मभिः मन्यमानैरिमम् देहमजरा मृत्युनश्वरम् देवसङ्गीतमप्यन्ते कृमिविड्भस्मसङ्गीतम् भूतधृक्तत्कृते स्वार्थम् किम् वेद निरयो यतः देहः किमन्नदातुः स्वम् निषेक्तुर्मातुरेव च मातुः पितुर्वा बलिनः क्रेतुरग्नेः शृणोऽपि वा एवम् साधारणम् देहमव्यक्तप्रभवाप्ययम् को विद्वानात्मसात् कृत्वा हन्ति जन्तून् नृते सतः असतः श्रीमदान्धस्य दारिद्र्यम् परमञ्जनम् आत्मौपम्येन भूतानि दरिद्रः परमीक्षते यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति ताम् व्यथाम् जीवसाम्यम् गतो लिङ्गैर्न तथा विद्धकण्टकः दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह कृच्छ्रम् यदृच्छयाप्नोति तद्धि तस्य परम् तपः नित्यम् क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिणः इन्द्रियाण्यनुशुष्यन्ति हिंसापि विनिवर्तते दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः सद्भिः क्षिणोति तम् तर्षम् तदाराद्विशुध्यति साधूनाम् समचित्तानाम् मुकुन्दचरणैषिणाम् उपेक्ष्यैः किम् धनस्तम्भैरसद्भिरसदाश्रयैः तदहम् मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः तमो मदम् हरिष्यामि स्त्रैणयोरजितात्मनोः यदिमौ लोकपालस्य पुत्रौ भूत्वा तमः प्लुतौ न विवाससमात्मानम् विजानीतः सुदुर्मदौ अतोर्हतः स्थावरताम् स्याताम् नैवम् यथा पुनः स्मृतिस्यान्मत्प्रसादेन तत्रापि मदनुग्रहात् वासुदेवस्य सान्निध्यम् लब्ध्वा दिव्यशरच्छते वृत्ते स्वर्लोकताम् भूयो लब्धभक्ति भविष्यतः। श्रीशुक उवाच एवमुक्त्वा स देवर्षिर्गतो नारायणाश्रमम् नलकूबरमणिग्रीवा वासतुर्यमलार्जुनौ ऋषेर्भागवतमुख्यस्य सत्यम् कर्तुम् वचो हरिः जगामशनकैस्तत्र यत्रास्ताम् यमलार्जुनौ देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ तत्तथा साधयिष्यामि यद्गीतम् तन्महात्मना इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलम् बालेन निष्कर्षयतान्वगुलूखलम् तद् दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ निष्पेततुः परमविक्रमितातिवेपस्कन्धप्रवालविटपौ कृतचण्डशब्दौ तत्र श्रिया परमया ककुपस्फुरन्तौ सिद्धावुपेत्य कुजयोरिव जातवेदाः कृष्णम् प्रणम्य शिरसाखिललोकनाथम् बद्धाञ्जलिविरजसा विदमूचतु स्म कृष्णकृष्णमहायोगिन्स्त्वमाद्यः पुरुषः परः व्यक्ताव्यक्तमिदम् विश्वम् रूपम् ते ब्राह्मणा विदुः त्वमेकः सर्वभूतानाम् देहास्वात्मेन्द्रियेश्वरः त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः त्वम् महान् प्रकृतिः सूक्ष्मा रजः सत्त्वतमो मयी त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः कोऽन्विहार्हति विज्ञातुम् प्राक्सिद्धम् गुणसंवृतः। तस्मै तुभ्यम् भगवते वासुदेवाय वेधसे आत्मद्योतगुणैश्छन्न महिम्ने ब्रह्मणे नमः। यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्गतैः स भवान् सर्वलोकस्य भवाय विभवाय च अवतीर्णोऽंशभागेन साम्प्रतम् पतिराशिषाम्। नमः परमकल्याण, नमः परममङ्गल, वासुदेवाय शान्ताय यदूनाम् पतये नमः। अनुजानीहि नौ भूमन्स्तवानुचर किङ्करौ, दर्शनम् नौ भगवत ऋषेरासीदनुग्रहात्। वाणी गुणानुकथने श्रवणौ कथायाम्, हस्तौ च कर्मसु मनस्तव पादयोर्नः। स्मृत्याम् शिरस्तव निवास जगत्प्रणामे, दृष्टिः सताम् दर्शनेऽस्तु भवत्तनूनाम्। श्रीशुक उवाच, इत्थम् सङ्कीर्तितस्ताभ्याम् भगवान् गोकुलेश्वरः, दाम्ना चोलूखले बद्धः प्रहसन्नाः गुह्यकौ। श्रीभगवानुवाच, ज्ञातम् मम पुरैवैतदृशिणा करुणात्मना, यच्छ्रीमदान्धयोर्वाग्भिर्विभ्रंशोऽनुग्रहः कृतः। साधूनाम् समचित्तानाम् सुतराम् मत्कृतात्मनाम्, दर्शनान्नो भवेद्बन्धः पुंसोऽक्ष्णोः सवितुर्यथा। तद्गच्छतम् मत्परमौ नलकूबरसादनम्, सञ्जातो मयि भावो वामीप्सितः परमो भवः। श्रीशुक उवाच, इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः, बद्धो लूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे नारदशापो नाम दशमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।